इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। लोकसभा निर्वाचनस्य चतुर्थ चरणाय आन्ध्रप्रदेशस्य एकचरणीय विधानसभा निर्वाचनाय ओडिशायाः विधानसभा निर्वाचनस्य प्रथमचरणाय च प्रचारः ह्यः सायं समाप्तं जातम्। चतुर्थचरणेऽस्मिन् नवराज्यानां केन्द्रशासित प्रदेशस्य च 96 आसनेषु श्वः सोमवासरे मतदानं भविष्यति। सममेव आन्ध्रप्रदेशस्य 75+100 आसनेषु, ओडिशायाः 47+100 आसनेषु 28 आसनानां कृते विधानसभा निर्वाचनम् अपि सोमवासरे भविष्यति। तत्रैव चरणेऽस्मिन् आन्ध्रप्रदेशस्य 25, बिहारस्य 5, झारखण्डस्य 4, मध्यप्रदेशस्य 8, महाराष्ट्रस्य 11, ओडिशायाः 4, तेलंगानायाः 17, उत्तरप्रदेशस्य 13, पश्चिमबंगस्य 8, जम्मूकश्मीरस्य 1 आसनस्य च कृते मतदानं भविष्यति। विभिन्न राजनीतिक दलानां शीर्षनेतारः स्वपक्षीय अभ्यर्थिनां कृते प्रचाराभियानं सम्पादितवन्तः। श्रीमोदिना झारखण्डस्य चतरायां भाजपेति दलस्य नेत्रा केन्द्रीय मन्त्रिणा अमितशाहेन, तेलंगानायाः विकाराबादे कांग्रेसदलस्य पूर्वाध्यक्षेण राहुलगांधिना आन्ध्रप्रदेशस्य कडप्पायां च प्रचाराभियानं सम्पादितम्। अस्य मासस्य 7 दिनांके आयोजिते लोकसभानिर्वाचनस्य तृतीयचरणे समस्त 65.68% यावत् मतदानं जातम्। तेषु प्रायः 68.89% यावत् पुरुषमतदातारः, 64.41% यावत् महिलामतदातारः, 25.2% यावत् अन्ये मतदातारः च सम्मिलिताः आसन्। निर्वाचनायोगस्य अनुसारं महिलामतदातृणां संख्या सर्वाधिकम् असमराज्ये 85.34% आसीत्। तदनन्तरं पश्चिमवंगे 83.1% यावत् महिलामतदातारः च सम्मिलिताः आसन्। उत्तरप्रदेशे सर्वाधिकं न्यूनं महिलाः 55.1%, गुजराते 56.65% यावत् महिलाः सम्मिलिताः आसन्। अस्मिन् चरणे 10 राज्यानां 1 केन्द्रशासित प्रदेशस्य च 93 लोकसभासनानां कृते मतदानम् अभवत्। भारतीय ऋतु विज्ञान विभागेन IMD इत्यनेन मंगलवासरं यावत् उत्तर पश्चिमीय पूर्व मध्य दक्षिण प्रायद्वीपीय भारते विद्युद्योतनेन वायुना च सह तीव्रवृष्टेः संभावना प्रकटिता। तेन उक्तं यत् वज्रपातेन सममेव वृष्ट्याः कारणात् देशस्य अनेकेषु भागेषु प्रचलित तापतरंगे न्यूनता आगतः। तत्रैव आगामी 3 दिवसेषु एतादृशी स्थितिः न कुत्रचित् अपि दृश्यते। IPL क्रिकेट प्रतिस्पर्धायां ह्यः कोलकातायाः ईडन गार्डन क्रीडांगणे मुंबई इंडियंस कोलकाता नाइट राइडर्स दलयोः क्रीडायां कोलकाता नाइट राइडर्स दलेन 18 धावनांकैः मुंबई इंडियंस दलं पराजितम् इति वार्ताः।